इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभा निर्वाचनाय प्रचारः द्रुतगत्यां प्रचलति। प्रमुख राजनैतिक दलानां शीर्ष नेतारः देशस्य विभिन्न भागेषु भ्रमणं कृत्वा स्वीय पक्षीय उम्मीदवाराणां समर्थने सार्वजनिक सभाः यात्राश्च आज आयोजयन्ति। भाजपेति दलस्य वरिष्ठ नेता प्रधानमन्त्री च नरेन्द्रमोदी ह्यः गतसायं चेन्नई नगरे मार्ग प्रदर्शने तमिलनाडोः द्विदिवसीय यात्रायाः आरम्भं कृतवान्। सः विशेष विमानयानेन चेन्नई नगरं सम्प्राप्तवान्। दक्षिण चेन्नई उत्तर मध्य लोकसभा निर्वाचन क्षेत्रेषु भाजपेति दलस्य प्रत्याशिनः डॉ तमिलसाई सौन्दरराजन, पॉल कनगराज, विनोज पी सेल्वम इत्यादीनां कृते मतं याचितवान्। द्वि किलोमीटर परिमितं यावत् मार्ग प्रदर्शनं पनागल उद्यानादारभ्य एल्डम्स मार्गे तेनामपेट इत्यत्र च समाप्तम्। श्रीमोदिना सह राज्य भाजपाध्यक्षः के अन्नमलई इत्यादयः आसन्। अद्य भाजपेति दलस्य अभियान प्रचारकः श्रीमोदी द्वे जनसभे सम्बोधयिष्यतः। प्रथमं वेल्लोर नगरस्य कोयम्बटूर समीपे, द्वितीयं मेट्टुपालयम नगरे च। तत्रैव स्टालिनः स्वीय प्रचाराभियानावधौ अवदत् यत् अपर्याप्त धनानां कारणेन अभाजपा प्रशासित राज्यानि सदैव हानियुतानि भवन्ति। सः एआईएडीएमके दलस्य चतुर्वर्षीय कार्यकाले निष्क्रियः आसीत् इति आलोचितवान्। ध्येयास्पदं वर्तते यत् अस्य मासस्य ऊनविंशतिः दिनांके तमिलनाडुराज्ये ऊनचत्वारिंशत् लोकसभासनानां कृते एकचरणीय मतदानं भविष्यति। निर्वाचनायोगेन स्वतन्त्र निष्पक्ष लोकसभा निर्वाचनाय केन्द्रीय गृहमन्त्रालयं पश्चिम बंगाले केन्द्रीय सशस्त्र अर्धसैन्य बलस्य शताधिकाः अन्याः उद्यमाः नियोजितुं निर्देशः प्रदत्तः। सूत्रानुसारि आयोगस्य निर्देशकेन गृहमन्त्रालयेन केन्द्रीय रिजर्व आरक्षिदलस्य पञ्चपञ्चाशत् उद्यमाः, सुरक्षाबलस्य पञ्चचत्वारिंशत् उद्यमाः च नियोजिताः सन्ति। ह्यः नवदिल्लीनगरे विदेशमन्त्री डॉ एस जयशंकरः बेल्जियम देशस्य विदेशमन्त्रालयस्य महासचिवः थियोडोरा जेन्टिस इत्यनेन सह मिलितवान्। एकस्मिन् अन्तर्जालीय सन्देशे डॉ जयशंकरः अवदत् यत् भारत बेल्जियम यूरोपीय संघानां च आर्थिक राजनैतिक सहकार्यस्य सुदृढीकरणस्य विषये चर्चां कृतवन्तः। डॉ जयशंकरः अर्धचालकस्य हरित विकासस्य च विषये विचाराणाम् आदान प्रदानम् अपि कृतवान्। दिल्ल्याः राउज एवेन्यू न्यायालयेन दिल्ली उत्पाद शुल्क नीति प्रवञ्चना सम्बन्धे धनशोधन प्रकरणे भारत राष्ट्र समित्याः नेत्र्याः के कवितायाः न्यायिक कारावासावधिः अस्मिन् मासस्य त्रयोविंशति दिनांक पर्यन्तं समेधिता। आईपीएल क्रिकेट प्रतिस्पर्धायां ह्यः चण्डीगढस्य महाराजा यादविन्द्र सिंह अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे पंजाब किंग्स दलं सनराइजर्स हैदराबाद इत्यनेन दलेन स्पर्धायां द्वाभ्यां धावनांकाभ्यां पराजितम्। तत्रैव अद्य अन्यतमा प्रतिस्पर्धा जयपुरस्य सवाई मानसिंह क्रीडांगणे राजस्थान रॉयल्स गुजरात टाइटन्स दलयोर्मध्ये सायं सार्ध सप्तवादने भविष्यति। इति वार्ताः।